ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। नारद उवाच, एवं दैत्यसुतै पृष्टो महाभागवतो सुरः। उवाच स्मयमानस्तान् स्मरन् मदनुभाषितम्। प्रह्लाद उवाच, पितरि प्रस्थिते अस्माकं तपसे मन्दराचलम्। युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति। पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः। पापेन पापो भक्षीति वादिनो वासवादयः। तेषामतिबलोद्योगम् निशम्यासुरयूथपाः। वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम्। कलत्रपुत्रमित्राप्तान् गृहान् पशुपरिच्छदान् नावेक्षमाणास्त्वरिताः सर्वे प्राणपरीप्सवः। व्यलुम्पन् राजशिबिर मम राजयकाङ्क्षिणः। इन्द्रस्तु राजमहिषीम् मातरम् मम चाग्रहीत्। नीयमानाम् भयोद्विग्नाम् रुदतीम् कुररीमिव। यदृच्छया गतस्तत्र देवर्षिर्ददृशे पथि। प्राहमयीनाम् सुरपते नेतुमर्हस्य नागसम्। मुञ्च मुञ्च महाभाग सतीम् परपरिग्रहम्। इन्द्र उवाच, आस्ते स्याजठरे वीर्यमविषय्यम् सुरद्विषः। आस्यताम् यावत्प्रसवम् मोक्षेऽर्थपदवीम् गतः। नारद उवाच, अयम् निष्किल्बिषः साक्षान् महाभागवतो महान्। त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली। इत्युक्तस्ताम् विहायेन्द्रो देवर्षेर्मानयन् वचः। अनन्तप्रियभक्त्यैनाम् परिक्रम्य दिवम् ययौ। ततो नो मातरमृषिः समानीय निजाश्रमम्। आश्वास्ये होष्यताम् वत्से यावत्ते भर्तुरागमः। तथेत्यवात्सीत् देवर्षेरन्तिसाप्य कुतो भया। यावद्दैत्यपतिर्घोरा तपसो न न्यवर्तत। ऋषिम् पर्यचरत्तत्र भक्त्या परमया सती। अन्तर्वत्नी स्वगर्भस्य क्षेमा येच्छा प्रसूतये। ऋषिकारुणिकस्तस्याः प्रादादुभयमीश्वरः। धर्मस्य तत्त्वम् ज्ञानम् च मामप्युद्दिश्य निर्मलम्। तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातु स्थिरो दधे। ऋषिणानुगृहीतम् माम् नाधुनाप्यजहात् स्मृतिः। भवतामपि भूयान्मे यदि श्रद्धसते वचः। वैशारदीधि श्रद्धातः स्त्रीबालानाम् च मे यथा। जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः। फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना। आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञाश्रयः। अविक्रिय स्वदृग्हेतुर्व्यापको संज्ञनावृतः। एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः अहम् अमेत्य सद्भावम् देहादौ मोहजम् त्यजेत्। स्वर्णम् यथा ग्रावसुहेमकारः क्षेत्रेषु योगैः सदभिज्ञाप्नुयात्। क्षेत्रेषु देहेषु तथात्मयोगैरध्यात्मविद्ब्रह्मगतिम् लभेत। अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः। विकारा षोडशाचार्यैः पुमानेकः समन्वयात्। देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा। अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्यजन्। अन्वयव्यतिरेकेण विवेकेनो शतात्मना। सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः। बुद्धेर्जागरणम् स्वप्न सुसुप्तिरिति वृत्तयः। तायेनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः। एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः। स्वरूपमात्मनो बुद्धेद्गन्धैर्वायुमिवान्वयात्। एतद्वारो हि संसारो गुणकर्मनिबन्धनः। अज्ञानमूलोपार्थोऽपि पुंसः स्वप्न इवेष्यते। तस्माद्भवद्भिः कर्तव्यम् कर्मणाम् त्रिगुणात्मनाम्। बीजनिर्हरणम् योगः प्रवाहो परमोधियः। तत्रोपायसहस्राणामयम् भगवतोदितः। यदीश्वरे भगवति यथा यैरञ्जसारतिः। गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च सङ्गेन साधुभक्तानामीश्वराराधनेन च श्रद्धया तत्कथायाम् च कीर्तनैर्गुणकर्मणाम् तत्पादाम्बुरुहध्यानात् तल्लिङ्गे क्षार्हणादिभिः। हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः इति भूतानि मनसा कामैस्तैः साधुमानयेत्। एवम् निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे वासुदेवे भगवति यया संलभते रतिम्। निशम्य कर्माणि गुणान् तुल्यान् वीर्याणि लीलातनुपिकृतानि। यदातिहर्षोत्पुलकाश्रुगद्गदम् प्रोत्कण्ठ उद्गायति रौति नृत्यति। यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दते ध्यायति वन्दते जनम्। मुहुश्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः। तदा पुमान्मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशया कृतिः। निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्सजम्। अधोक्सजालम्भमिहाशुभात्मनः शरीरिण संसृतिचक्रशातनम्। तद्ब्रह्म निर्वाण सुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम्। कोटिप्रयासो सुरबालका हरेरुपासने स्वे हृदि छिद्रवत्सतः स्वस्यात्मना सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः। रायः कलत्रं पशवस्सुतादयो गृहामही कुञ्जरकोशभूतयः। सर्वेऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः। एवं हि लोकाः कृतविकृता अमी क्षयिष्णवः सातिशयान निर्मलाः। तस्मादृष्टश्रुतदूषणं परं भक्त्यैकयेशं भजतात्मलब्धये। यदध्यर्थ्येह कर्माणि विद्वन्मान्यसकृन्नरः करोत्यतो विपर्यासममोघं विन्दते फलम्। सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः सदाप्नोति हया दुःखमनीहायाः सुखावृतः। कामान् कामयते काम्यैर्यदर्थमिह पूरुषः स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च। किमुव्यवहितापत्यदारागारधनादयः राज्यं कोशगजामात्य भृत्याप्ता ममतास्पदाः। किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः अनर्थैरर्थसङ्काशैर्नित्यानन्दमहोदधेः। निरूप्यतामिह स्वार्थ कियान् देहभृतोऽसुराः। निषेकादिष्वस्थासु क्लिश्यमानस्य कर्मभिः कर्माण्यारभते देहि देहेनात्मानुवर्तिना। कर्मभिस्तनुते देहमुभयं त्वविवेकतः। तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः भजतानीहयात्मानमनीहं हरिमीश्वरम्। सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः भूतैर्महद्भिः स्वकृतैः कृतानां जीवसङ्गितः। देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च भजन्मुकुन्दचरणं स्वस्तिमान् स्यात् यथा वयम्। नालं द्विजत्वं देवत्वमृषित्वं वा सुरात्मजाः प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता न दानं न तपो नेज्य न शौचं न व्रतानि च। प्रीयते मलया भक्त्या हरिरन्यत् विडम्बनम् ततो हरौ भगवति भक्तिं कुरु तदानवाः। आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः खगा मृगाः पापजीवाः सन्ति यच्युततांगताः। एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परस्मृतः एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।